गच्छन्ति त्वा सोम्यासः सखाय शृण्वन्ति सोमम् दधति प्रजांसि तिलिक्षन्ते अभिषस्तिम् जनानामिन्द्रत्वदा कश्चन हि प्रकेतः न ते दूने परमाचिद्रजांस्यादुप्रजा हि हरिवो हरिभ्याम् श्रीराजवृष्णे समना कृते मा युक्ताग्रावाणः समिधाने अग्नौ इन्द्रः सुशिप्रो मघपातरुत्र महाव्रातस्तु विकोर्भिर्घावान् यदुग्रोधाभाधितमत्येषुक्वाद्यते वृढभवीर्याणि त्वम् युष्माच्चावयन्यच्युतान्येको धृत्राचरसि जिघ्रमाणः तमद्या वा पृथिवी पर्वतासोऽनु व्रता जनिमीतेवतस्थो उता भजे पुरुहूतश्रवोभिरेको दृढमवदो वृत्रः सन् इमे चेदिन्द्ररोदासि अपारे यत्सम् गृह्णामघवन् काशिरित्ते प्रसूत इन्द्रप्रवता हरिभ्याम् प्रते वज्रः प्रवृणन्मे शत्रून् जहि प्रतीचो अनूचः पराचो विश्वम् सत्यम् क्रीणुहि विष्टमस्तु यस्मै राजुरधामर्त्याजा भक्तम् यद्भजते गेह्यांसः भद्राता इन्द्रसु मदिर्घृताची सहस्रधारा पुरुहूतरातिः सहदानम् पुरुहूत क्षियन्त महस्तमिन्द्रसम्पी नक्कुनारुम् अभिवृत्तम् वर्धमानम् पियारुमपादमिन्द्रतमसा जगन्थ निरामि शिरामिन्द्रभूमिम् महीमपारांसदने सत्थ अस्तभ्राद्याम् ऋषभो अन्तरिक्षमर्षन्तापस्तयेह प्रसूताः ृणोबलिन्द्रव्रजोगोः पुराहन्तोर्भयमानो व्यार सुगान्पथो अकृणोन् निरजेकाः प्रावन्वाणीः पुरुहूतम् धमन्धीः एको द्वे वसुमती समीचीन्द्रापप्रो पृथिवीमुदद्याम् उदान्तरिक्षादभिनः समीकयिषो रथीः सयिनः सूरवाजान् दिश सूर्यो नमेनादिप्रतिष्ठा दिवे दिवे हर्यस्व प्रसूताः संयदा नलध्वान आदितस्वैर्विमोचनम् कृणुते तत्त्वस्य त्रिक्षन्दपुषसो यामन्नक्तोर्विवस्वत्यामही चित्रमणीकम् विश्वे जानन्दिर्हिना यदा गादिन्द्रस्य कर्म सुकृता पुरूणि युज्यो निर्निहितम् भक्षणाः स्वामा भक्त्वम् च रतिबिभ्रति गौः विश्वाम् स्वात्मसंहृतमुश्रियायाम् यत्सीमिन्द्रो अदधाद्भोजनाय इन्द्रदिह्ययामकोशा भूवन् यज्ञाय शिक्षगृणते सखिभ्यः दुर्मायवो दुरे वामत्या सो निषङ्गिनो रिपबोहन्त्वा सह सङ्घोरशृण्वे वमैरमित्रैर्जहीन्येष्वसनिन्तपृष्ठा निश्चेमतस्ताद्विरुजासहस्वजहि रक्षो मघवन् रन्धयस्व उद्ब्रेहरक्षः सह मूलमिन्द्रविश्च मध्यम् प्रत्यग्रम् शृणीः आजीव नः सललोकम् जगर्थ ब्रह्मद्विषेतपूषिन्धेदिवस्य स्वस्तये वाजिभिश्च प्रणेतः संयन्महीर्ष आसत्सि पूर्वीः रायो मन्दारो बृहदस्यामास्मे अस्तु भग इन्द्रप्रजावान् आनो भरभगमिन्द्रद्युमन्तम् निजे देष्णस्य धीमहि प्ररेके पूर्वजीव पप्रथे कामो अस्मे तमाप्रेण वसुपते वसूनाम् इमम् कामम् मन्दयागोभिरस्वैश्चन्द्रवताराधसा पप्रथश्च स्वर्यवो मतिभिस्तुभ्यम् विप्रायिन्द्राय वाहः कुशिकासो अक्रन् आनो गो गोत्रादर्दिः गोपदेकाः समस्मभ्यम् सनयोजन्तु वाजाः दिवक्षा असि वृषभ सत्यदुष्मोऽस्मभ्यम् सुमघवन्बोधिगोदाः सुनम् भूवेम मघवानमिन्द्रमस्मिन् भरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् रत्नानि सञ्चितम् धनानाम् सद्वन्निर्दुहितम् अप्यङ्गाद्विद्वास्य दीधीतम् स पर्यन् यत्र दुहितस्येकमृञ्जान् संसग्ने रमनसादधन्वे न जामयेतान् वा रिक्थमारैश्चकारगर्भम् स निदुर्निधानम् यदि मातरो जनयन् तवह्नि मन्यः कर्ता सुकृतो रञ्जरन्धन् अग्निर्जज्ञे जुह्वा आरेजमानो मनस्पुत्रा अरुणस्य प्रजक्षे महान् गर्भो मह्या जातमेषा मही प्रवृद्धर्यस्वस्वयज्ञैः अभिजैत्रीरसनन्दस्पृधानम् महिज्योतिस्तमसो निराजानन् सञ्जानतीः प्रत्युदायन्नुषा सःपतिर्गमामभवदे गजिन्द्राः वीणौ सतीरभिधीरा अदृन्दन् प्राचाहिन् मन्मनसा सप्तविप्राः विश्वामविन्दन् बध्यामृतस्य प्रजानन्निच्छानमसा दीवेश विनद्यती शरमारुग्रमद्रेर्महिपाथः पूर्वम् सद्यः कः अग्रन्नयः सुपद्यक्षरा नामच्छारमम् प्रथमाजानदीगात् अगच्छतु विप्रथमः सखीयन्न सूदयः सुकृते गर्भमद्रीः शसानमर्योजिबभिर्मखस्यन्नथा भवदिङ्गीराः सद्यो अर्चन् सदस्सदः प्रतिमानम् पुरोभूर्विश्वावेदजनी माहन्ति सुष्णम् प्रणोदिवः पदवीर्गव्युरर्चन् सखासखीन्द्रमुञ्चन्निरपद्यात् निगौ यदा मनसा सेतुरर्कैः कृण्वानासो अमृतत्वाय गातुम् इदम् चिन्न सदनम् भूर्येषाम् ये नमासाङ्गशेषासन् कृतेन सम्पश्यमानामदन्नभिस्वम् पचः प्रत्नस्य वेदसो दुहानाः विरोदसी अतपद्घोष येषाम् जाते निष्ठामदधुर्घोषो वीरान् स जातेभिर्वृत्रः सेतु हव्यैरुदुश्रिया असृजिन्द्रो अर्कैः पुरोच्यस्मे घृतपद्भरम् तीमधस्वात्मदुदुहेजेन्यागौः पित्रे चिञ्चक्रः सदनम् समस्मै महिद्विषीमः सुकृतो विहिख्यन् विष्कभ्रन्तस्कम्भने राजनित्री आसीना भूर्ध्वम् रभसं विमिन्वन् महीयति धिषणाशिश्रसेधात् सद्यो वृथम् विद्वा अम्रोदस्योः गिरो यस्मिन्ननवद्याः समीचीर्विश्वायिन्द्रायतवीषीरणुत्ताः मह्याते सख्यम् वस्मि शक्तिरावृत्रघ्ने नियुतो यन्ति पूर्वीः मयि स्तोत्रमवागन् मसूरेरस्माकम् सुमघवन् बोधि गोपाः मयि क्षेत्रम् पुरुश्चन्द्रम् वे विद्वानादित्सखिभ्यः सरतम समैरत् इन्द्रो गृभिरजनद्येद्यानः साकम् सूर्यमुषसम् गातुमग्निम् अपश्चेदेष विभो ओदमूना प्रसद्धीचीरसृजद्विश्वश्चन्द्राः मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः अनु कृष्णे वसुधिते जिगाते उभे सूर्गस्य मम्फनाभिजत्रे परियत्ते महिमानम् व्रजध्ये सखायैन्द्रकाम्या ऋजिप्याः पतिर्भवृत्रः सोऽनृतानाम् गिराम् विश्वाजुर्वृषभो वयोधाः आनो गै सख्येभिः शिवेभिर्महान् महीभिरोतिभिः सरण्यन् अलङ्गिरस्मन्नमसा स पर्यन्नव्यम् कृणोभि सन्न्यासे पुराजाम् ोऽभिधायि बहुना अदेभि स्वस्य नो मघवन् सातयेधाः यः पापका प्रदाता अभूवन् स्वस्ति नः पिबिः पालमासाम् इन्द्रत्वम् रचिरः पाहि नो ऋषो मक्षो मक्षो गृणिः गोजितो नः अदेदिष्टवृत्रः गोपदीर्गा अन्तः कृष्णाङ्गारुषैर्धामभिर्गाद् रसोऽनृता दिशमानृते न दुरश्च विश्वा अवृणोदमस्वाः सुरम् वो वेम मघवानमिन्द्रमस्मिन्धरे नृतमम् वाजसातौ शृण्वन्तमुग्रमूदये समत्सु बृहन्तम् रत्नानि सञ्चितम् धनानाम् इन्द्रसोमम् सोमपते पिभेमम् माध्यम् दिनम् समनम् चारुयत्ते प्रपृच्छासि प्रेम घवन् ऋजीषन् विमुच्या हरी इहमादयस्व गवासिनम् मन्थिनमिन्द्रशुक्रम् विभा सोमम् नरिमादे मदाय ब्रह्मकृता मारुतेन गणेन सजोषा रुद्रैस्त्रिपदा वृषस्व ये ते सुष्णम् ये तवीषीमवर्धन्नर्थन्त इन्द्रमरुतस्तवोजाः माध्यम् दिने समने वज्रहस्तपिबा रुद्रेभिः सगणस्व शिप्र त इन्द्रस्य मधुमद्विप्रयिन्द्रस्य शर्धो मरुतोज आसन् येभिर्भृत्रस्येषित विवेदा मर्मणो मन्यमानस्य मर्म मनुष्वदिन्द्रसवनम् जुषाणः पिभासो मंसस्व ते वीर्याय सामवृत्स्वहर्यस्व यज्ञैः सरण्युभिरपो अर्नासि सर्षि नवमो यद्धवृत्रम् जघन्वाङ्गिवप्रासृजः सर्पवाजौ शयानमिन्द्रतरतापथेन बभ्रिवान् सम्परि देवीरदेवम् यदा मयिन्नमसा वृद्धमिन्द्रम् बृहन्तमिष्टमजरम् युवानम् यस्य प्रिये मम दुर्यज्ञस्य न रोदसीमहिमानम् मम ते इन्द्रस्य कर्म सुकृता बहूणि वृतानि देवानमीनन्ति विश्वे गाधारजः पृथिवीन्द्यामुते माम् जजान सूर्यमुषसम् सुदंसाः अद्रोघसत्यम् तपतन्न हि त्वम् सद्यो यज्जातो अपि वोह सोमम् नद्याव इन्द्रतमसस्तवो जो नाहानमासाः शरदो वरन्त त्वम् सद्यो विवो जात इन्द्रमधाय सोमम् परमे व्योमन् यद्धद्या वा पृथिवी आविवेशीरथा भवः पूर्व्यः कारुधायाः अहन्न हिम्बरिजयानमर्न वो जायमानम् द्विजाततम् जान न ते महित्वमनुभूतधद्योर्यधन्यजास्विज्ञा आक्षामवस्थाः यज्ञो हित इन्द्रवर्ध नो भूदुदप्रियः श्रुतसोमोऽभिजेधाः यज्ञेन यज्ञमापयज्ञयस्वम् यज्ञस्ते वज्रमहिहत्य आवत् यज्ञेनेन्द्रमपसा चक्रे अर्वागीयम् सुम्ना जनव्यासेव वृत्याम् यस्तोमेभिर्वा वृधे पूर्वेभिर्जो मध्यमेभिरुतनूतनेभिः निवेषयन्माधिषणाजिदानस्त वै पुराभार्यादिन्द्रबह्नाः अम्भसो यत्र पीपरज्जसा नो नामे मयान्तमुभये हवन्ते आपूर्णो अस्य कलशस्वाहासेक्ते वकोशम् सिसि चेऽपि बध्यै समप्रिया आववृत्यन्मदायम् प्रदक्षिणिदभिलोमास इन्द्रम् नत्वागभीरः पूरभूतसिन्धम् नाद्रजः परिषन्तो वरन्त मिथ्या सखिभ्यगिषुयोगिन्द्रादृढम् चतरो जोगव्यमूर्वम् सुरम् भूमेम मघवानमिन्द्रमस्मिन् फले नृतमम् वाज सातौ शृण्वन्तमुग्रमूतये समत्सघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् प्रपर्वदानाम् सतीरुपस्थादस्मे जिभविषीते हासमाने गावेव शुभ्रे मातरादिहाने विपाक्षदुद्रीपयसा जपेते इन्द्रेषितेऽर्थसवम् भिक्षमाणे अच्छा समुद्रम् रथ्येव यातः समाराणे भूर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे अच्छा सिन्धुम् मातृत मामजा संविपासमुर्वीम् सुभगामगन्म मत्समीव मातरा संविहाने समानम् यो निमनो सञ्चरन्ति येन भयम् प्रयसा पिन्वमाना अनुयोनिम् देवकृतम् चरन्ति नवर्तवे प्रसवः सर्गदक्तः किञ्जुर्विप्रो नद्यो जोहवीति रमध्वम् वेम च सोम्याजरितावरीरूपमुहूर्तमेवैः प्रसन्ध्वमच्छा बृहतीम नीशामस्युरः मे कुशिकस्य सूनुः इन्द्रो अस्माद्वज्रबाहुरबाहन् वृत्रम् पारिधिम् नदीनाम् देवो नयत्स पितासु पाणिस्तस्य भयम् प्रसवेयामभुर्वीः प्रवाच्यम् सस्वधा वीर्या अन्तदिन्द्रस्य कर्म यदहिम् विभृश्चत् निवज्रेण परिणतो जघानायन्नापोजनमिच्छमानाः एतद्वचो जरितर्माभिमृष्टा आयत्ते घोषानुत्तराजुगानि मुक्तेषु कारो प्रतिनोजुरस्वमानो निकः पुरुषत्रा नमस्ते ओषस्वसारः कारवे शृणोत ययौवो दूरादनसारथेन निषून मध्वम् भवता सुपाराधो अक्षासिन्धवः श्रोत्याभिः आदेकारो शृणवामापचांसि ययाथ दूरादनसारथेन निदेनम् सैप्याने भजोषामर्यायेव कन्या सस्वतैते यदङ्गत्वा भरता सन्तरे युर्गव्यम् ग्रामयिषत इन्द्रदूतः हर्षादः प्रसवः सर्गदर्गावो वृणे सुमतिम् यज्ञयानाम् अदारिषर्भरदाव्यवः समभक्तविप्रसुमतिम् नदीनाम् प्रविन्मध्वमिषयन्ति सुराधा भक्षणा प्रणध्वम् जातशीभम् उद्वभूर्मिः संज्ञा हन्त्वा भोजोत्राणि मुञ्चत मा दुष्कृतौ येन साज्ञौनवारता इन्द्रः पूर्भिरादिरद्धासमर्कैर्विदद्वसुद्दय मानोऽपि शत्रून् ब्रह्मज्योतस्तन्वावृधानो भूरि दात्रावृणद्रोदसी उभे मखस्य चेतपिषस्य प्रज्योतिमियम् निमाय मनुताय भूषन् इन्द्रक्षितीनाम शिवानुषीणाम् विशाम् देवीनामुत पूर्वया वा इन्द्रो वृत्रमवृणोच्छर्दनीजक्रमायिनाममिनाद्वर्पणीतिः अहङ्ग्यम् समुचधर्पणेष्वाविर्धेनावृणोद्राम्यानाम् इन्द्रस्वर्षा जनयन्नः निजोषिभ्यः प्रदाना अभिष्टिः प्रारोचयन्मन वेगेतुमन्नामविन्दज्योतिर्बृहतेरणाय इन्द्रस्तु च बर्हणाविवेश नृपद्दधानो नर्याः पुरूणि अचेदयद्धिय इमाज ऋत्रे प्रेमम् वर्णमदिरच्छुक्रमासाम् मा महानी प्रणयन्त्यस्येन्द्रस्य कर्म सुकृता पुरोणि विजनेन विजनान् सम्बिबेण मायाभिर्दस्योऽङ्ग्रविभोऽद्योजाः युजेन्द्रमह्नावरीवश्च कालदेवेभ्यः सत्तादिश्चर्षणिप्राः विवस्व दस्वदाने अस्य दानि विप्रा भुक्तेभिः कवयो गृह्णन्ति सत्रासाहम्बरेण्यम् स होदाम् स सवाम् संस्वरवश्च देवीः सदानः पृथिवेन्द्यामुदे मामिन्द्रम् मदन्त्यनुधीरनासः सदानाद्याहमुत सूर्यम् ससानेन्द्रस्वदानपुरुभोज सङ्गाम् हिरण्ययामुत भोगम् सदा न हत्वेदस्योन्प्रार्यम् वर्णमावत् इन्द्रवोढधीरसनोदः निवनस्पतीङ्ग्रसनोदन्तरिक्षम् विभेदबलम् नो नृते विवाचोधा भवद्दमिदाभिक्रतूनाम् शृणम् भूवेम मघवानमिन्द्रमस्मिन्भरे ऋतमम् वाज सातौ शृण्वन्त उग्रमूतये समत्सभ्यन्तम् वृत्राणि सञ्चितम् धराणाम् तिष्ठा हरीरथा युज्यमाना जाहि वायुर्न निजितो नो अच्छ युवास्यन्धो अभिसृष्टो अस्मेन्दस्वाहारिमादेवदाय उपाजिरापूरुहूताय सप्ति हरीरथस्य धूर्ष्वायूनज्मि यथा सम्भृतम् विश्वतश्चिदुपेमम् यज्ञमावाहादयिन्द्रम् उपोनयस्व वृषनाथपुष्पो देमवत्त्वम् वृषभस्वधावः गृहेतामस्वामिमोचेहसो ना दिवे दिवे सदृशीरद्धिधाराः ब्रह्मणाते ब्रह्मयुजायुनज्विहरीसखायासधमाद आसु स्थिरम् रथम् सुखमिन्द्राधितिष्ठन् प्रजानन् विद्वायाहि सोमम् मा देहरीवृडनाभीतपृष्ठानिरेरमन्यजमानासो अन्ये अत्यायाहि सस्वतो भयन्तेरम् सुतेभिः कृणवामसोमैः तवायम् सोमस्त्वमे शर्वाम् सस्वत्तमम् सुमना अस्य पाहि अस्मिन् यज्ञे बर्हिष्या ऋषद्यादधिष्वेमम् जठर इन्दूरिन्द्र स्तीर्णन्ते बर्हिः सुत इन्द्रसोमः कृताधाना अत्र मे ते हरिभ्याम् ततोऽगसे पुरुषाकाय कृष्णे मरुत्वते तुभ्यम् राता हवींषि इमम् नरः पर्वतास्तुभ्यमापस्समिन्द्रगोभिर्मधुमन्दमक्रन् तस्यागत्या सुमनारिष्वाहि प्रजानन् विद्वान् तस्या अनुस्वाः यावयो मरुत इन्द्रसो मेये त्वामवर्धन्न भवन् गणस्ते तेभिरेतम् सुजोडावावसानो ओग्नेः पिब जिह्वया सोमामिन्द्र इन्द्रपिबस्वधया जिच्छुतस्याग्नेर्वा पाहि जिह्वया यजत्र अध्वर्योर्वा प्रयातम् सक्रहस्ताद्धो दर्वा यज्ञम् भविरो जुडस्व सुरङ्गो वेम मघवानमिन्द्रमस्मिन्भरे नृतमम् वाज सातौ शृण्वन्तमुग्रमूदये समत्सुघ्नन्तम् वृत्राणि सञ्चितम् धनानाम् इमामोषप्रभृतिम् सातये धास्वच्छस्वदूतिभिर्जातमानः सुते सुदेवावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः शुश्रूतोऽभूत् इन्द्रायसो वा प्रतिभो विदानाभिर्वृषपर्वाविहायाः प्रयम्यमानान् प्रतिशोग्रेभाजेन्द्रपिलवृषधूतस्य कृष्णाः पिपावर्धस्व तव घासुदास इन्द्रसो मा स प्रथमा कुते मे यथा पूर्व्यासोमाहि पन्यो अद्यानवीयान् महान्नमत्र भृजने विरप्सु उग्रम् सवः पत्यते धृष्मोजाः नाहविव्याज पृथिवी जनैनम् यत्सोमा सोहर्यस्वमन्दन् उग्रो वा मृधे वीर्याय समाचक्रे वृषभक्काव्येन इन्द्रो भगो वाजदा अस्य गावः प्रजायन्ते दक्षिणा अस्य पूर्वीः प्रयत्सिन्धवः प्रसमञ्जसायन्नापः समुद्रम् रत्स्येव जग्मुः अतश्चिदिन्द्रः सदा सोवरीयान् यदीम् सोमः प्रणति दुग्धो अंसुः समुद्रेण सिन्धवो जातमाना इन्द्रायतो वंसुषूतम् भरन्तः अंसुम् दुहन्ति हस्तिना भरित्रैर्मध्वः पुनन्ति धाराजा पवित्रैः हृदायेव कुक्षयः स्वमधाराः समी विव्याच समना पुरूणि अन्नायदिन्द्रः प्रथमा व्यास वृत्रम् च घन्वा वृणीत सोमम् आतुघरमागिरे तत्परिष्ठाद्विद्माहित्वा वसुपतिम् वसूनाम् इन्द्रयत्ते माहीनम् तत्र मस्त्यस्मभ्यम् तद्धर्यस्व प्रयन्धि अस्मे प्रयन्धि मघवन् ऋजेषन्निन्द्र राजो विश्ववारस्य भूरेः अस्मे सतम् सरदो जीवसेधास्ते वीराक्षस्व द इन्द्रशिप्रिम् सुरम् गोमेव मघवानमिन्द्रमस्मिन् भरे नृतमम् वाच सातौ शृण्वन्तमुग्रमूतये समत्सुघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् मात्रहत्याय समासे मृतनाशाह्याय च इन्द्रत्वा वर्धयामसि अर्वाचीनम् सुते मन बुधचक्षुः सतक्रतो इन्द्रः कण्वन्तु बाघताः नामानि ते सदक्रतो विश्वाभिर्गीर्भिरीमहे इन्द्राभिमातिशाह्ये पुरुष्टुदस्य धामाभिः सतेन महयामसि इन्द्रस्य दर्शने धृताः इन्द्रम् वृत्रा जहन्त वे पुरुहूतमुपब्रुवे भरेषु वाच सातये बाजेषु सासहिर्भवत्वामीमहे सदक्रतो इन्द्र वृत्रा जहन्त वे युम्नेषु पृथराज्ये पृत्सुतोर्षस्रवसृज इन्द्रसाक्ष्वाभिमातिषु चुष्मिन्दमन्नभूतयेः द्युम्निनम् पाहि जाग्रेविम् इन्द्रसोमम् सदक्रतो इन्द्रियाणि सदक्रतो जाते जनेषु पञ्चसु इन्द्रतानि तावृणे अगन्निन्द्रस्रवो बृहद्युम्नम् दधिष्वदुष्टरम् उत्ते सुष्मम् तिरामसि अर्वावतो नागश्यथो शक्रपरावथाः लोको यस्ते अद्रिवलिङ्ग्रेह ददागहि अभिदष्टे वधीधयामनीषामत्यो न भाजी सुसुरोजिहानः अभिप्रियाणि मर्मृ सत्पराणि कवीम् गृच्छामि सन्दृशे सुमेधाः इनादपृच्छजनी मा कवीनाम् मनोधृतः सुकृतस्तक्षतद्याम् इमाभूते प्रण्यो ओबद्धमानामनो माता अधनुधर्मानिग्मन् निषेवजद्रगुह्या दधानाभुतक्षत्राजरोदसी समञ्जन् सम्मात्राभिर्ममिरे एव सुर्वी अन्तर्महि समृते धाजसेधुः आतिष्ठन्तम् परिविश्वे अभूषाञ्चयोऽवसानश्चरति स्वरोचिः महत्तद्रष्णो असुरस्य नामा विश्वरूपो अमृतानितस्थौ असूतपूर्वा विषभोऽध्यायानि मा अस्य सुहृदः सन्ति पूर्वीः दिवो न माता विदधस्य जीभिः क्षत्रम् राजाना प्रदिवो दधाते त्रीणि राजाना विदधे गुरूणि परिविश्वानि भूषधस्तदांसि अपश्यमत्रमना सा जघन्वान् हृदे गन्धर्वान्नपि वाजुकेशान् जन्मस्य वृषभस्य धेनोराणामभिर्ममिरे सद्भ्यङ्गोः अन्यदन्यदसुर्या अम्बसा नानि माजिनो ममिरे रूपमस्मिन् तदन्वस्य स पितर्न किर्मे हिरण्यजी ममतिम् जामसि श्रेत् आदुष्टुतिरोदसि विश्वबिन्वे अपि भयोषाधनीमानि वव्रे युवम् रत्नस्य साधतो महो यद्दैवी स्वस्तिः परेण स्यातम् गोपालिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मालिनः कृतानि शृणम् गोवेम मघवानमिन्द्रमस्मिन् भरे नृतमम् वाच सातौ शृण्वन्तमुग्रमूदये समत्सभ्यन्तम् वृत्राणि सञ्चितम् धनाना इन्द्रम् मदर्हृदा वच्यमानाच्छापदिम् स्तोमादष्टा जिगाति या जाग्रेभिर्विदधे सस्यमानेन्द्रयत्ते जायते भिद्धिकस्य दिवश्चिदा पूर्या जायमाना विजाग्रेभिर्विदधे सस्यमाना भद्रावस्त्राण्यर्जुनावसा नाशयमस्मे स न चाभिद्याधीः यमाचिरत्राजमसूरसूदजिह्वाजा अग्रम् तदा ह्यस्तात् वपुंषि जातामि सुना स चेत मोहनातपूषो बुद्धयेता न कीरेषाम् निन्दितामत्येषु ये अस्माकम् पितरोगोषु योधाः इन्द्रयेषान्द्रम् हितामाहीना भानुद्गोत्राणि ससृजे दंसरावान् सकाहयत्र सखीभिर्नवग्भैरभिज्ञासत्त्वभिर्गानुग्मन् सत्यम् तदिन्द्रो दशभिर्दशग्भैः सूर्यम् विरेदतमाशिक्षियम् तम् इन्द्रो मधुसम्भृतमुश्रियायाम् पद्मद्वीपेदशभवनमेकोः गुहाहितम् गुह्यम् गोढमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ज्योतिर्वृणीततमसो विजानन्नारे श्याम दुरितादधीके इमागिरः सोमपा सोमवृद्धजुषस्वेन्द्रपुरुतमस्य कारोः ज्योतिर्यज्ञायरोदसि अनुष्यादारे श्याम दुरितस्य भूरेः भूरे जिद्धितो जतो मत्यस्य सुपारासो वसवो बर्हणावत् सुनङ्गोमेव भगवानमिन्द्रमस्मिन् भरे नृतमम्बाज सातौ शृण्वन्तमुग्रभूतये समत्स्वघ्नन्तम् वृत्राणि सञ्चितम् धनाना भद्रम् नो अभिवादयमनाः ॐ हरि ॐ इन्द्रत्वा वृषभम् वयम् सुते सोमे हवामहे सपाहि मध्वो अन्धसः इन्द्रक्रतुविदम् सुतम् सोमम् हर्यपुरुष्टुत विवावृषस्वदातृपिम् इन्द्रप्रणोधितावाहनम् यज्ञम् विश्वेभिर्देवेभिः तिरस्तवानविस्पते इन्द्रसोमाः सुता जिमेतपप्रयम् दिसत्पते क्षयम् चन्द्रास इन्द्रवः दधिष्वा जठरे सुतम् सोममिन्द्रवरेण्यम् तवद्युक्षा स इन्द्रवः निर्वणः पाहिनः सुतम् मधोर्धाराभिरज्यसे इन्द्रत्वादा तमिद्यसाः अभिद्युम्नानि बलिन इन्द्रम् सजन्ते अक्षीता ईत्वे सोमस्य वावृधे अर्वावतो नागाहि परापतश्च वृत्रहन् इमाजूषस्व नो गिराः यदन्तरापरावतमर्वावतम् च हूयसे इन्द्रेह तदागाहि आतुना इन्द्रमद्यग्भुवानः सोमपीतये हरिभ्याम् याह्यद्रिवः सत्त्वो होदानरित्वयस्ति स्थिरे बर्हिरानुषक् अयुज्रान् प्रातरद्रजः इमा ब्रह्मवाह क्रियन्ता बर्हिः सेद दीहिसूरपुरोलासम् रारन्धिसवनेषु न येषु स्तोमेषु मृद्रहन् मुक्थेष्विन्नगिर्वणः मदयः सोमपामुरम् दृहन्ति सव सस्पतिम् इन्द्रम् वत्सन्न मातराः समन्द्रस्वाह्यन्धसोराधसे तन्वामहे न स्तोतारम् निजेकरः वयमिन्द्रत्वायवो हविष्मन्तो जरामहे उदत्वमस्मयुर्वसो मारे अस्मद्विमुचो हरिप्रियार्वाङ्याहि इन्द्रस्वधा वो मत्स्रेह अर्वाञ्चन्त्वा सुखे रथे वहतामिन्द्रकेशिनाः घृतस्नो बर्हिरासते उपानः सुतमागहि सोमामिन्द्रगवासिनम् हरिभ्यायस्ते अस्मयो तमिन्द्रमधगागहि बर्हिष्ठाङ्ग्रामाभिः सुतम् कुबिन्वस्य नृप्नवाः इन्द्रमिच्छागिरोमाच्छा गुरुषिदायितः आवृते सोमपीतये इन्द्रम् सोमस्य पीतये स्तोमैरिह वामहे मुक्थेभिः कुविदागमत् इन्द्रसोमाः सुता जिमेतान्दधिष्वसदक्रतो जठरे वाजिनीवसो विद्माहित्वा धनञ्जयम् वाजेषु दधिषम् कवे अधादे सुम्नमीमहे इममिन्द्रगमासिरम् जमासिरम् च नः पिब आगत्या वृषभिः सुतम् तुभ्येदिन्द्रस्वभोग्ये ये सोमम् चोदामि भीतये एकरारन्तु ते हृदे त्वाम् सुतस्य भीतये प्रत्नमिन्द्रहवामहे कुशिकासो अपस्य वाह आया ह्यर्वामुपाबन्धुरेष्टास्तवेदनः प्रतिभस्वमपेयम् प्रिया सखा यापि भुजोपबर्हिस्त्वाभिमेहव्यवाहो हवन्ते आयाहि भूर्वीरति चर्षणीराम् हर्य आशिषगुप नो हरिभ्याम् इमाहित्वा मदयस्तोमदष्टा इन्द्रहवन्ते सख्यम् जोषाणाः आनो यज्ञम् न वो वृधम् सजोषा इन्द्रदेवहरिभिर्याहितूयम् अहम् जित्वा मतिभिर्जोह विमिघृतप्रजाः सधमदेवधूना आसत्वा मेधावृषणावहातो हरी सखाया सुधुरा स्वङ्गा ध्यानावदिन्द्रस्वरञ्जुषानः सखा सख्यः शृणवद्वन्दनानि कुविन्मा गोपाङ्करसेजनस्य कुविद्राजानम् मघवन् ऋजेषिन् कुविन्महर्षिम् पपिवांसम् सुतस्य कुविन्मेव स्वो अमृतस्य शिक्षाः आत्मा बृहन्तो हनयो युजाना अर्वागिन्द्रसधमादो वहन्तु प्रये द्विताधिपरिञ्जन्त्यासुतम् वृष्टासो वृषभस्य मूराः इन्द्रपिबवृषधूतस्य वृष्णायन्ते स्वेन भूषते च भार यस्य मते चावयसि प्रकृष्टेर्यस्य मते अपगोत्रावर्थ शृणम् भूमेव मघवानमिन्द्रमस्मिन्भरे कृतमम् वाचसातौ शृण्वन्तमुग्रमूतये समत्स्वघ्नन्तम् वृत्राणि सञ्जितम् धनानाम् अजन्ते अस्तु हर्यतः सोमः हरिभिः सुतः जुषान इन्द्रहरिभिर्नागह्यातिष्ठहरितम् रथम् हर्यन्नुषसमर्चयः सूर्यम् हर्यन्न रोजयः विद्वांसि गित्वान् हर्यस्ववर्धस इन्द्रविश्वा अभिश्रियाः या इन्द्रो हरिधायसम् पृथिवीम् हरिवर्पसम् अधारयद्धरितोर्भूरिभोजरङ्गजोरन्तर्हरिश्चरत् यज्ञानो हरितो वृषा विश्वमाभादिलोचनम् हर्यस्वो हरिदम् धत्तायुधमा वज्रम् बाह्वोर्हरिम् इन्द्रो हर्यन्तमर्जुनम् वज्रम् शुक्रैरभिवृतम् अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत आमन्त्रैरिन्द्रहरिधर्याहि मयूररोमभिः मा त्वागे चिन्त्य मन्विन्न पासिनोति धन्वे मताः वृत्रघातो बलम् मृजः पुरा धर्म अपामजः स्थातारथस्य हर्योरभिस्वर इन्द्रो दृढाचीदारुजः गम्भीराङ्गुदधीङ्ग्रीवक्रतुम् पुष्यसि गायैव रसो गोपायवासम् धेनवो यथा हृदम् कुल्यायीवासत आनस्तुजम् प्रयम् भराम् सन्न प्रतिजानते वृक्षम् पक्वम् फलमङ्कीव दूनिहीन्द्र सम्पारणम् वसु स्वैरिन्द्रस्वरालासिस्मद्दृष्टिः स्वजासस्तरः समावृधानभोजसा पुरुष्टुतभवानः शुश्रवस्तमः युध्मस्य ते वृषभस्य स्वराज उग्रस्य योनस्तवीरस्य घृष्वेः अजोर्यजोद्रिणो वीर्या आनीन्द्रश्रुतस्य महतो महानि महाकाशिमहिषवृष्णेभिर्धनस्पृतग्रसहमानो अन्यान् एको विश्वस्य भुवनस्य राजा स योधया चक्षयया च जनान् प्रमात्राभिरिचे रोचमानः प्रदेवेभिर्विश्वतो अप्रदीदः प्रभाज्वलादिव इन्द्रः पृथिव्या प्रोरोर्महो अन्तरिक्षादृजीषि उरुङ्गभीरम् जनुषाभ्यो उग्रम् विश्वव्या च समभतम् नादीना इन्द्रम् सोमाः प्रदिवे सुदातस्य मुद्रन्न श्रवदावेशन्ति यम् सोमामिन्द्रपृथिवीद्या वा गर्भन्न मातापिभृतस्त्वाया तन्ते हिन्वन्ति समूते मृजम् त्वध्वर्यवो मृषभवाधवाहु मरुत्वाङ्गीन्द्रवृषभोरणायपि पा सोम मनुष्वधम् मदाय आसिञ्जस्व जठरे मध्वभूर्मिन्दम् राजासि प्रतिवस्तुतानाम् सजोषा इन्द्रसगणो मरुद्भिः सोमम् विववृत्रः सूरविद्वान् जहि सद्रोङ्गपमृधो न दस्वाता भयम् गृणिहि विश्वसो नः उत ऋजुभिर्ऋजुवाः पाहि सोममिन्द्र देवेभिः सखेभिः सुतम् नाः आभजो मरुतो ये त्वाहन् वृत्रमदस्तुभ्यमोजाः ये त्वा हि हत्ये मघवर्णवद्धङ्गे साम् भरे हरिभोजे कविष्टौ ये त्वा नूनमनुमदन्ति विप्राहिलेन्द्रसोमम् सगणो मरुद्भिः मनुत्वन्तम् वृषभम् वा वृधानवकवारिम् दिव्यम् सासमिन्द्रम् विश्वासाहमवासे नूतनायोग्रम् सहोदाभिहतम् भूवे